नमस्सर्वेभ्यः। अद्य छन्दोवर्गस्य सप्तमः पाठः। अद्य वयम् उपजातिः इति वृत्तस्य विषये जानीमः। उपजातेः लक्षणं किं भवति, उदाहरणे कथं लक्षणस्य समन्वयः इति पश्यामः। उपजातेः लक्षणम् अस्ति अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीया उपजातयस्ताः। वस्तुतः उपजातिः इति स्वतन्त्रं वृत्तं न। उपजातेः लक्षणे किं कथ्यते, यदीयौ पादौ, यस्य वृत्तस्य पादौ अनन्तर उदीरित लक्ष्मभाजौ। उदीरितं नाम उक्तम् इत्यर्थः। किम् उक्तम्? लक्ष्म, लक्ष्म लक्षणम्। अनन्तरम् उक्तं लक्षणम्, यत्र छन्दोद्वयस्य लक्षणं कथ्यते। तत्र प्रथमम् एकं वृत्तम् उच्यते, द्वितीयम् एकं वृत्तम् उच्यते। एकस्मिन्नेव श्लोके एकस्य पादस्य लक्षणं प्रथमवृत्तस्य भवति, अन्यस्य पादस्य लक्षणं द्वितीयवृत्तस्य भवति। अतः एतयोः वृत्तयोः सम्मिश्रणम् एव उपजातिः इति कथ्यते। उपजातिः इत्युक्ते छन्दोद्वयस्य मिश्रणम्, तस्य उपजातिः इति नाम। उपजातिः इति एकं वृत्तं न, यत्र यत्र वृत्तद्वयस्य सम्मिश्रणम् एकस्मिन्नेव श्लोके अथवा एकस्मिन्नेव पद्ये क्रियते तस्य उपजातिः इति नाम। तत्र अत्यन्तं प्रसिद्धा उपजातिः भवति इन्द्रवज्रा उपेन्द्रवज्रा वृत्तयोः मिश्रणम्। वयं पूर्वतनवर्गेषु इन्द्रवज्रायाः उपेन्द्रवज्रायाः लक्षणं ज्ञातवन्तः। उभौ अपि अत्यन्तौ परस्पर सदृशौ इत्यपि ज्ञातवन्तः किल। वस्तुतः इन्द्रवज्रायाः उपेन्द्रवज्रायाश्च एकस्मिन्नेव अक्षरे भेदः भवति। इन्द्रवज्रायां प्रथमः वर्णः गुरुः भवति, उपेन्द्रवज्रायां तु प्रथमः लघुः भवति। अन्यत् सर्वं समानम्। स्यादिन्द्रवज्रा यदितौ जगौगः, तगणद्वयं जगणः गुरुद्वयं चेद् इन्द्रवज्रा। उपेन्द्रवज्रा जतजास्ततोगौ, जतज गणाः गुरुद्वयम् अस्ति चेद् उपेन्द्रवज्रा। समानानि अक्षराणि, उभयत्रापि एकादश अक्षराणि भवन्ति, प्रस्तारः भवति। अतः एकस्मिन्नेव श्लोके यदि इन्द्रवज्र उपेन्द्रवज्रयोः मिश्रणमस्ति तर्हि उपजातिः इति कथ्यते। अत्र लक्षणे अपि तथैव अस्ति। वयं पश्यामः चेत् अत्र अ अ इति लघुः, अनन्तरोदीरित, अत्र कश्चित् भेदः अस्ति। अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीया उपजातयस्ताः इति लक्षणं भवति। अ इति लघुः, न इति अग्रे संयोगः अस्ति अतः गुरुः, त इति लघुः, रोदीरितलक्ष्म भाजौ पादौव्यदीयावुपजातयस्ताः। सो अत्र पश्यन्ति चेत् अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः। सो मध्यगुरुः जगणः, अन्त्यलघुः तगणः, मध्यगुरुः जगणः, जतज गुरुः गुरुः। अतः प्रथमपादः उपेन्द्रवज्र वृत्तस्य लक्षणेन समन्वेति। अत्र तु त अन्त्यलघुः, त ज गुरुः गुरुः। द्वितीयः पादः इन्द्रवज्र वृत्ते अस्ति। एवम् उपेन्द्रवज्र इन्द्रवज्रयोः मिश्रणम् अस्ति इत्यतः इयम् उपजातिः इति कथ्यते। एकम् उदाहरणं पश्यामः। कालिदासस्य रघुवंशे द्वितीयसर्गे अयं श्लोकः अस्ति। एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च अल्पस्य हेतोर्बहुहातुमिच्छन् विचारमूढः प्रतिभासि मे त्वम्। अत्र प्रस्तारं कुर्मः चेत् एकातपत्रं जगतः प्रभुत्वं न वं वयः, अनुस्वारः विसर्गः, कान्तमिदं वपुश्च अल्पस्य हेतोर्वहुहातुमिच्छन् विचारमूढः प्रतिभासि मे त्वम्। अत्र गणविभागं कुर्मः चेत् त्रयाणां त्रयाणाम् अक्षराणाम् एकः गणः भवति। अत्र पश्यन्तु, एकात इति तगणः, अन्यत् सर्वं तदेव भवति। ज गुरुः गुरुः, तत्र भेदः एव नास्ति, प्रथमवर्णे एव। सो तगणः, अत्र आदौ लघुः अस्ति अतः जगणः, अत्र गुरुः अस्ति तगणः, अत्र लघुः अस्ति जगणः। एवं प्रथमपादे तृतीयपादे च त ज गुरुद्वयम् इति इन्द्रवज्रवृत्तम् अस्ति। द्वितीयपादे चतुर्थपादे च ज त ज इति उपेन्द्रवज्र वृत्तमस्ति। एवञ्च अस्य पद्यस्य वृत्तम् उपजातिः इति कथ्यते, इन्द्रवज्र उपेन्द्रवज्रयोः मिश्रणम्। अत्र एतद् ज्ञातव्यं, सर्वेषु पद्येषु पादद्वयम् इन्द्रवज्रे, पादद्वयम् उपेन्द्रवज्रे इति नियमः नास्ति। कः आदौ कः अन्ते इत्यपि नियमः नास्ति। कदाचित् पादत्रयम् उपेन्द्रवज्रायां भवति, एकः पादः इन्द्रवज्रायां, कदाचित् पादत्रयम् इन्द्रवज्रायाम्, एकः उपेन्द्रवज्रायां, यः कोऽपि भवितुम् अर्हति। यत्किमपि येन केनापि क्रमेण एकत्र अन्यत् वृत्तं, पादत्रयम् उपेन्द्रवज्रायाम्, एकः पादः इन्द्रवज्रायां चेदपि उपजातिरेव। एतदुदाहरणं पश्यामः। बालमुकुन्द अष्टकम् इति प्रसिद्धं स्तोत्रमस्ति बालस्य श्रीकृष्णस्य। तत्रत्यः श्लोकः, करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तं वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि। अत्र पश्यामः चेत् प्रथम अक्षरमात्रं पश्यामः, क इति लघुः, करार मुखार वटस्य, ट इति ह्रस्वः, अग्रे संयोगः अस्ति अतः गुरुः, बालं मु, त्र आदौ पादत्रये जगणः अस्ति अतः उपेन्द्रवज्र वृत्तमस्ति। केवलम् अन्तिमपादे इन्द्रवज्र वृत्तमस्ति। इदमपि उपजातिः इत्येव कथ्यते। अतः यः कोऽपि क्रमः भवतु, उपेन्द्रवज्र इन्द्रवज्रयोः मिश्रणं यत्र भवति तद्वृत्तम् उपजातिः। वस्तुतः इन्द्रवज्र उपेन्द्रवज्रयोरेव इति न, एतादृश परस्पर सदृशयोः छन्दसोः मिश्रणं यत्र भवति तत्र उपजातिः, किन्तु उपजातौ अत्यन्तं सामान्येन दृश्यमानः प्रभेदः उपेन्द्रवज्र इन्द्रवज्रयोः मिश्रणमेव. बहुत्र काव्येषु एतादृश उपजातिवृत्तं दृश्यते. कालिदासस्य रघुवंशे द्वितीयसर्गे सामान्यतः सर्वमपि उपजातिरेव. वाल्मीकिमहर्षिणापि उपयुक्तमस्ति, बहुत्र अस्ति. अतः अस्मिन् पाठे वयम् उपजातेः विषये ज्ञातवन्तः. उपजातिः समानाक्षरयोः वृत्तयोः मिश्रणम् एव उपजातिः. सामान्यतः इन्द्रवज्र उपेन्द्रवज्रयोः मिश्रणं दृश्यते. अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीया उपजातयस्ताः इति उपजातेः लक्षणं भवति. अभ्यासपत्रे श्लोकाः दीयन्ते, तत्र प्रस्तारं कृत्वा केषु केषु पादेषु इन्द्रवज्र केषु उपेन्द्रवज्र इति पश्यन्तु.